एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा कथयति देशस्य विकासेन समृद्ध्या च सम्पृक्तयोः पश्चिम सेती पञ्चेश्वर जलविद्युदायोजनयोः निर्माणाय सर्वकारेण प्राथमिकता प्रदत्तास्ति। धनगढ़ी स्थाने यः सुदूर पश्चिम महोत्सवम् उद्घाटयन् प्रधानमन्त्री देवागदत् जलविद्युदायोजनया सह राम्नी जमरा कुलरिया महाकाली सिंचनादि योजनाभ्यश्च सर्वकारेण प्राथमिकताम् प्रदाय कार्यम् अग्रे वर्धापितमस्ति। सुदूर पश्चिम प्रदेशे कृषि पर्यटनोद्योग व्यापारैः आर्थिक समृद्धि अधिगन्तुम् शक्यते इति चर्चयन् प्रधानमन्त्री देउवा विकासाय प्रदेश स्थानीय स्तरैः समन्वयम् विधाय अग्रे प्रवर्धने बलम् प्रादात्। कार्यक्रमे समवृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुँवरः सामाजिक सुरक्षा कोषस्य परिधिम् प्रवर्ध्य वृत्त्युपार्जनम् स्रष्टुम् वैदेशिक वृत्त्युपार्जनात् प्रत्यावृताम् युवशक्तिम् पुनः वृत्त्युपार्जने संयोक्तुम् च सर्वकारः प्रयासरतो वर्तते। इत्यवोचत् सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्री त्रिलोचन भट्ट अवासत प्रदेशस्य समग्र विकासाय प्राथमिकताम् प्रदाय सर्वकारः अग्रे वर्धमानोऽस्ति। उपराष्ट्रपतिः नन्दबहादुर पुन मानवाधिकाराणाम् उल्लंघनस्य घटनानाम् अनवरोधनम् प्रति चिन्ताम् व्यनक्ति। राष्ट्रिय मानवाधिकारायोगस्य सहकार्येण ह्य काष्ठमण्डपे आयोजितम् एतद् विक्रमवर्षीयम् चतुर्दशम् मानवाधिकार राष्ट्रिय मेलनम् उद्घाटयन् उपराष्ट्रपतिः पुन मानवाधिकाराणाम् प्रवर्धनाय सर्वकारस्य प्रयास सन्नपि जनतया पूर्णतः मानवाधिकाराणाम् संरक्षणम् अनुभूतम् नास्तीति अवोचत्। मानवाधिकाराणाम् सम्मानः संरक्षणम् पूर्णतः पालनञ्च अनिवार्यम् वर्तते इति भाषमाणः उपराष्ट्रपतिः पुन मानवाधिकाराणाम् प्रत्याभूत्यै विदेह व्यवस्थायाः पूर्णतः क्रियान्वयनस्य आवश्यकताम् दर्शितवान्। कार्यक्रमे मानवाधिकाराय शान्तये च पद्मरत्न तुलाधर सम्मानः मल्ल के सुन्दराय चतुर्दश राष्ट्रिय मानवाधिकार महामेला सम्मानः आप्रवासी श्रमिकाणाम् मानवाधिकाराणाम् रक्षणे अहोरात्रः क्रियाशीलाय डाक्टर गणेश गुरुङ इत्यस्मै च प्रदत्तौ आस्ताम्। प्रधानमन्त्री शेरबहादुर देउवा कथयति परिश्रमिणः दायित्ववाहिनश्च समुदायस्य रूपेण परिचितः ज्यापु समुदायः नेपाली समाजस्य संस्कृतेश्च अभिन्नम् अंगमस्ति। एकोनविंशस्य एतद् विक्रम वर्षस्य राष्ट्रिय ज्यापु दिवसस्य अवसरे ज्यापु संस्कृति विकास कोषेण ह्य काष्ठमण्डपस्य वसन्तपुर प्राङ्गणे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा अगदत् काष्ठमण्डपोपत्यकायाः कला संस्कृति सभ्यतानां विकासे ज्यापु समुदायस्य महत्वपूर्णं योगदानं वर्तते। प्रधानमन्त्री देउवा नेपाल सर्वकारेण ज्यापु समुदायस्य संस्कृतेः परम्परायाश्च संरक्षणाय ज्यापु संस्कृति विकास कोषस्य संस्थापनाय सहयोगः विहितोऽस्तीति सूचयत। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री जीवन राम श्रेष्ठ अकथयत् नेपालस्य कला संस्कृत्योः विकासाय सम्पदः संरक्षणाय च सर्वकारेण अग्रे वर्धापिताय कार्याय जनस्तराद् सहयोगो विधातव्य। नेकपा एमाले दलस्य केन्द्रीय सचिवालय उपवेशः अद्य उपविश्यमानोऽस्ति। एमाले दलस्य प्रचार विभाग प्रमुखस्य पृथ्वी सुब्बा गुरूङ इत्यस्य अनुसारेण उपवेशे समानुपातिक पक्षस्य सांसदानां चयनस्य विषये विमर्शनम् निर्वाचनस्य समीक्षा च विधीयमाने स्तः। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशा स्वदिवा एकवादने बस्ता। उपवेशे केन्द्रीय कार्य सम्पादन समितेः पदाधिकारिणः सदस्याश्च अनिवार्यतया उपस्थित्यै अनुरुद्धाः सन्तीति कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन प्रकाशितायम् विज्ञप्तौ उल्लिखितम् वर्तते। नेकपा एमाले दलस्य उपाध्यक्ष सुरेन्द्र पाण्डे भासते एमाले दलम् सर्वकार संगठनस्य स्पर्धायाम् नास्ति। प्रेस चौतारी नेपालस्य चितवन शाखया ह्य चितवन जनपदे आयोजिते पत्रकार सम्मेलने उपाध्यक्ष पाण्डे एमाले दलेन सम्प्रति स्वस्य नेतृत्वे सर्वकार संगठनस्य विषये चिन्तितम् नास्तीति अज्ञापयत्। उपाध्यक्ष पाण्डे देशे आर्थिके राजनीतिके च संकटे दृष्टे सति कांग्रेस एमाले दलयोः मध्ये सहकार्यस्य सम्भावनाम् दर्शितवान्। पाँचथर जनपदस्य फिदिम स्थाने जले निमज्य त्रिवर्षीय बालकः मृतोस्ति। एतत् जनपदस्य फिदिम नगरपालिकायाः द्वितीयवडा क्षेत्रस्य पल्लोटार स्थाने जलं संकलयितुं निर्मितायां पुष्करिण्यां निमज्य विशाल मगर इत्यस्य पुत्रः आरुष मगरः मृतो वर्तते। पाल्पा जनपदस्य बगनास कालीस्थाने विवाहस्य भोजे प्रयुक्तं जलं प्रदुष्टम् अस्तीति प्रयोगशालातः पुष्टिभूतं वर्तते। विवाहस्य भोजे भोजनस्य पाचनाय प्रयुक्ते जले विसूचिका प्रसारकः कोलिफर्म नामको जीवाणुः प्राप्तः इति पाल्पा जनपदीयः स्वास्थ्य कार्यालयो ज्ञापयति। गत शनिश्चरवासरे विवाहस्य भोजस्य भक्षणानन्तरं पाल्पा प्युठान जनपदयोः 50+ जनाः रुग्णावस्थायां प्राप्ताः आसन्। एते उदर वेदनेन, वमनेन, अतिसारेण, शिरोवेदनेन, ज्वरेण च ग्रस्ताः आसन्। भोजे प्रयुक्तयोः जलपात्रयोर्मध्ये एकस्य पात्रस्य जले कोलिफर्म नामको जीवाणुः प्राप्त इति स्वास्थ्य कार्यालयस्य प्रयोगशाला प्राविधिक मधुसूदन भट्टराई अज्ञापयत्। चितवन जनपदस्य इच्छा कामना ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य फिसलिङ स्थाने ह्यः पिकअप यानेन मोटरसाइकल यानं प्रहृतं सद् मोटरसाइकल याने आरूढः एक वैदेशिकः नागरिकः मृतः अन्य जनद्वयम् आहतञ्च वर्तन्ते। मृतकः जर्मन देशीयो नागरिकः 60-वर्षीयः मिचेल मेयर ओलवर्सा लोवेन अस्तीति चितवन जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। नारायणगढ़ स्थानात काष्ठमण्डपम् प्रति आगच्छत मोटरसाइकल यानम् धादिङ जनपदात मुङलिङ स्थानम् प्रति गच्छता पिकअप यानेन प्रहृत्या दुर्घटितम् आसीत्। पूर्व पश्चिम राजमार्गस्य अन्तर्गतम् नवलपुर जनपदस्य विनय त्रिवेणी ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य विनय खोलिकायाः निकटे ह्य बसयान ट्रकयानयोः परस्परं संघटितयोः सतोः 17 जना आहताः सन्ति। आहतेषु जनद्वयस्य अवस्था गभीरा वर्तते। बागलुङ जनपदात् भैरवा स्थानाय प्रस्थिते बसयाने पश्चिम दिशा आगच्छति ट्रकयाने च परस्परं संघटितयोः सतोः दुर्घटना दुरापन्नेति नवलपुर जनपद प्रहरी कार्यालयस्य सूचनाधिकारी सन्तोष पाठकः ज्ञापयति।